पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतमृतवर्षिणि भगवती अष्टादशाध्यायिनी अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणी भगवद्गीते भवद्वेषिणी न कांक्षे विजयं कृष्णा न च राज्यं सुखानि च किन्नो राज्येन गोविन्द किं भोगैर्जीवितेन वा किं भोगैर्जीवितेन वा अशोचानन्वशोचस्त्वं प्रज्ञावादांश भाषसि गतासु न गतासुश्च नानुशोचन्ति पण्डिता नानुशोचन्ति पण्डिता देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यति वासांसि जिनानि यथा विहाय न वानि गृह्णाति नरोपरा तथा शरीराणि विहाय जिना अन्यानि संयाति न वानि देहि नयनं छिन्दन्ति शस्त्राणि नयनं दहति पावकः न चैनं क्लेदयन्त्यापो न शोचयति मारुतः न शोचयति मारुतः जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च तस्मात् परिहार्येद्धे न त्वं शोचितुमर्हसि न त्वं शोचितुमर्हसि हतो वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्षसि मही तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः युद्धाय कृतनिश्चयः कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्म फल हे दुर्भू मा ते संगोस्तु कर्मणि मा ते संगोस्तु कर्मणि दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते। ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते, सङ्गास्सञ्जायते कामः, कामात् क्रोधोऽभिजायते, क्रोधाद्भवति सम्मोहः, सम्मोहात् स्मृतिविभ्रमः, स्मृतिर्भ्रंशार्बुद्धिनाशो, बुद्धिनाशात् प्रणश्यति, बुद्धिनाशात् प्रणश्यति। एषा ब्राह्मी स्थितिपार्था नयनां प्राप्य विमुह्यति, स्थित्वा स्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति, ब्रह्मनिर्वाणमृच्छति। लोकेऽस्मिन् विविधा निष्ठा पुरा प्रोक्ता मया नग, ज्ञानयोगेन साम्यानां कर्मयोगेन योगिनां। अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः, यज्ञाद्भवति पर्जन्यो यज्ञः कर्म समुद्भवः। एवं प्रवर्तितं चक्रं नानुवर्तयति हयः, अघायुरिन्द्रियारामो मोघं पार्द सजीवति। यद्यदाचरति श्रेष्ठः तत्तदेवेतरोजनः, स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते, लोकस्तदनुवर्तते। मयि सर्वाणि कर्माणि सम्यस्याध्यात्मचेतसा, निराशीर्निर्ममो भूत्वा युद्धस्वविगतज्वरः, युद्धस्वविगतज्वरः।